एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। संघीय संसदः वर्षाकालिकाधिवेशनम् ह्यः प्रारब्धमस्ति। प्रतिनिधिसभायाः ह्यस्तनोपवेशी सभामुखः देवराज घिमिरे संसदः इदम् अधिवेशनम् विधिनिर्माणस्य जनानाम् आकांक्षानाम् सम्बोधनस्य च विषयेषु प्रभावपूर्णम् भविष्यतीति अगदत्। विधिनिर्माणे विलम्बतायाः कारणेन नागरिकेषु असन्तुष्टिः वर्तते इति चर्चयन् सभामुखः घिमिरे अस्मिन् अधिवेशने प्रस्तुष्यमाणानाम् सर्वकारस्य नीतिकार्यक्रमाणाम् आयव्ययकस्य अन्येषाम् विधेयकानाम् च माध्यमेन जनतायाम् विद्यमानस्य नैराश्यस्य निराकरणम् भविष्यतीति विश्वासम् व्यक्तवान्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सभामुखस्य उपसभामुखस्य च अनुपस्थितौ उपवेशस्य अध्यक्षतायै सांसदानां मनोनयनं विहितम् आसीत्। उपवेशे उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः एतद्विक्रमवर्षीयं वैकल्पिक विकास वित्त परिचालन विधेयकं प्रास्तौत्। तत्पूर्वम् उपवेशे सांसदः श्यामकुमार घिमिरे गोकर्णविष्टः वर्षमान पुनः डोलप्रसाद अर्यालः राजेन्द्र लिङ्गदेन प्रकाश ज्वाला वीरेन्द्र प्रसाद महतो अब्दुल खान राजकिशोर यादवः सर्वेन्द्रनाथ शुक्लः गंगाराम चौधरी प्रेम सुवालः चित्रबहादुर केसी डाक्टर अमरेश कुमार सिंहः योगेन्द्र मण्डलस्य सामयिक विषयेषु धारणां व्यक्तवन्तः। प्रतिनिधिसभायाः अपर उपवेशः श्व रविवासरे प्रातः 11 वादने वस्ता। राष्ट्रियसभायाः ह्यस्तनोपवेशः शोकप्रस्तावं पारितीकृत्य स्थगितोऽस्ति। पूर्वमन्त्रिणः प्रतिनिधिसभायाः सांसदस्य च दीपक बोहरा इत्यस्य निधने सभायाः अध्यक्षेण नारायण प्रसाद दाहालेन प्रस्तुतस्य शोकप्रस्तावस्य सभया सर्वसम्मत्या पारितीकरणेन सहैव सभा स्थगितीकृता आसीत्। सभाध्यक्षः नारायण प्रसाद दाहालः सभायाः 18वें अधिवेशनस्य प्रथमे उपवेशे सदस्यानां स्वागतं विदधान अधिवेशनस्य आह्वानेन सह सम्बद्धं राष्ट्रपति कार्यालयात् प्राप्तं पत्रम् अश्रावयत्। राष्ट्रियसभायाः अपरोपवेशः श्व रविवासरे दिवासपादैकवादने वस्ता। सर्वकारेण अद्य आन्दोलनरताः शिक्षकाः निर्णायकवार्तायै आहूताः वर्तन्ते। मन्त्रालयेन ह्य आन्दोलनरता शिक्षकाः अद्य प्रातः 7:30 शिक्षा विज्ञान प्रविधि मन्त्रालये आयोज्यमानायां वार्तायां सहभागितायै अध्यक्षः अन्य पदाधिकारिणश्च उपस्थित्यै अनुरुद्धाः सन्ति। 2017 विक्रमवर्षस्य वैशाख मासस्य 12वें दिवसे दुरापन्नं विनाशकारिणं भूकम्पं स्मृत्वा ह्य आराष्ट्रं भूकम्प स्मृति दिवसः विभिन्नान् कार्यक्रमान् आयोज्य समादृतो वर्तते। 10 वर्षेभ्यः पूर्वं गोरखा जनपदस्य बार्पाक स्थानं केन्द्रबिन्दुं निर्माय दुरापन्नेन भूकम्पेन जनधनयोः महती क्षतिः विहिता वर्तते। राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन गोरखा भूकम्पस्य 10वें स्मृति दिवसस्य अवसरे ह्य धरहरा स्तम्भ परिसरे आयोजितायां सभायां प्रधानमन्त्री केपी शर्मा ओली सर्वकारेण जनतावास कार्यक्रमस्य अन्तर्गतं सुरक्षितैकीकृत वसतिं निर्मातुं विधिं निर्माय अग्रे वर्धिष्यते इति प्रतिबद्धतां व्यक्तवान्। सभायां गृहमन्त्री रमेश लेखकः सर्वकारः सम्प्रति सर्वविध विपत् संकटानां न्यूनीकरणाय प्रतिकरणाय च पूर्वकार्येषु संलग्नोऽस्तीति अज्ञापयत्। सभायां राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य कार्यकारी प्रमुखः डाक्टर भीष्म कुमार भूषालः विपदः व्यवस्थापनाय प्राधिकरणेन सूचना प्रविधे प्रयोगस्य माध्यमेन नैरन्तर्येण कार्यं विधीयमानम् अस्तीति असूचयत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः गोरखा जनपदस्य विकासाय जनानां सुखेषु दुःखेषु च सदैव समर्पणस्य प्रतिबद्धतां व्यनक्ति। गोरखा भूकम्पस्य केन्द्रबिन्दु स्थाने बार्पाक सुलिकोट ग्रामपालिकायाः 2वें ओडाक्षेत्रे ह्य आयोजितं भूकम्प स्मृति दिवस कार्यक्रमं सम्बोधयन् अध्यक्षः प्रचण्डः गोरखा जनपदस्य विकास निर्माण कर्माणि अग्रे सारयितुं प्रयत्नो विधीयमानोऽस्तीति अगदत्। आवासीय चिकित्सकैः चिकित्सालयेषु ह्य बहिरङ्ग सेवायाः अवरोधनात् चिकित्सालयान् प्राप्ताः रोगिणः पीडिताः सन्ति। सर्वकारीय चिकित्सालये इव समान रूपेण निर्वाह भरणं प्राप्तव्यमिति याचनाम् उपस्थाप्य आन्दोलनरतानां नैज चिकित्सा महाविद्यालयानां चिकित्सकानां आन्दोलनस्य कारणेन रोगिणः पीडिताः अभूवन्। एतेषाम् आन्दोलने सर्वकारीय चिकित्सकैरपि ऐक्यबद्धता प्रकटिता वर्तते। नेपाल चिकित्सक संघेन विज्ञप्तिं प्रकाश्य चिकित्सा सेवां पिधातुं समेषां नैजानां सर्वकारीयाणां च चिकित्सालयानां चिकित्सा महाविद्यालयानां प्रतिष्ठानानां च निर्देशकाः चिकित्सकाश्च आहूताः आसन्। संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरुङ इत्यनेन फेसबुक मैसेंजर इन्स्टाग्राम प्रभृतिषु सामाजिक सञ्जालेषु सप्ताहनाम दिनानाम अभ्यन्तरे सूचीकारितेषु असत्सु पिधापनाय प्रत्यादिष्टं वर्तते। य राष्ट्रिय सूचना आयोगेन आयोजितायाम सूचनायाः अधिकार सम्बद्धायाम अन्तर्क्रियायाम मन्त्री गुरुङ मेटा सञ्जालाय वारत्रयं यावदपि सूचीकरणं कारयितुं पत्राचारः विहितः सन्नपि उपेक्षा विधीयमानास्तीति चर्चयन् सप्ताहनां दिनानाम् अभ्यन्तरे सूचीकरणाभावे पिधापयिष्यन्ते इति प्रत्यादिष्टवान् अस्ति। संचारमन्त्री गुरुङ यस्मिन् देशे व्यवसायः सञ्चाल्यते तद्देशीय विधेः पालनं न क्रियते इति कथनं मेटा सञ्जालस्य अपमानजनक प्रकृतिरस्तीति उदैरयत्। परराष्ट्र मन्त्री डाक्टर आर्जु राणा देउवा गदति सर्वकार परिवर्तनस्य विषयः केनचित् जनेन प्रसारितः कुप्रचारो वर्तते। थाईल्याण्ड देशस्य बैंकक नगरे आयोजिते संयुक्त राष्ट्र संघीय कार्यक्रमे सहभागी भूत्वा ह्यः स्वदेशं प्रत्यागमनस्य पश्चात् त्रिभुवन अन्तर्राष्ट्रिय विमानस्थले पत्रकारैः सह एवम् अगदत्। लुम्बिन्याम् अद्यतः चतुर्थान्तरराष्ट्रिय सांस्कृतिक सम्मेलनम् आयोज्यमानम् वर्तते। बौद्ध संस्कृतौ चीनदेशीय संस्कृतौ कलायाञ्च परम्परागत बौद्ध चिकित्सायां बौद्ध शिक्षायां च केन्द्रीभूय आयोज्यमाने सम्मेलने चत्वारिंशतः कार्यपत्राणां प्रस्तुतेः कार्यं भविष्यति इति सम्मेलनस्य संयोजकः डाक्टर सागर न्यूपाने असूचयत्। एतत्पूर्वं प्रथम सम्मेलनं कम्बोडिया देशे द्वितीयं श्रीलंकायां तृतीयं सम्मेलनञ्च थाईल्याण्ड देशे समायोजितानि आसन्। इति समाचारः।